पञ्चमिदतो न सविन्ध प्रावस्तुदारादः अश्रेणास्वविदोहवम् मखस्य दोधदशिरोवत्पचो भारः अगच्छ स्वामिना गृहम् पञ्चमिन्द्रमर्त्यवास्र उध्नाय वेण्यम् मुहुश्रद्रावणस्य वे सन्त्यमिन्द्रसूर्यम् पश्चासन्दम् पुरस्कृधि देवानाञ्चित्तिरोवसम्